एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः भाषते हस्तकला नेपालस्य मौलिक क्षेत्रमा स्थिति हेतोः एतत् सप्तसु एव प्रदेशेषु विस्तार्यते। ललितपुरे ह्य आयोजिताम् नेपाल हस्तकला महासंघस्य द्विचत्वारिंशीम् वार्षिक साधारण सभाम् सम्बोधयन् प्रधानमन्त्री प्रचण्डः अवदत् हस्तकला क्षेत्रे सम्यक् विकासिते सति व्यापारहानिम् न्यूनीकृत्य नेपालस्य मौलिकता आविश्वम् प्रचारयितुम् विस्तारयितुम् च शक्यते। प्रधानमन्त्री प्रचण्डः अब्रवीत् नैजक्षेत्रेण सह सहकार्येण हस्तकलोद्योगः प्रवर्धनीयः। साधारणसभायां महासंघस्य अध्यक्ष प्रचण्ड साक्यश्च विचारं व्यक्तवान्। राष्ट्रियसभायाः गतदिवसीयोपवेशेन संघीयता क्रियान्वयनाध्ययनानुगमन संसदीय विशेष समितेः अवधिः सप्ताहाय वर्धितो वर्तते। राष्ट्रियसभायाः गत ज्येष्ठ मासस्य विंशे दिवसे उपविष्टेन उपवेशेन सप्तानामेव प्रदेशानाम् संघीयतायाः क्रियान्वयनाध्ययनानुगमनाय सांसदस्य खिमलाल देवकोटाविदस्य संयोजकत्वे सप्तसदस्यीया विशेष समितिः संघटिता आसीत्। गतदिवसीयोपवेशे सांसदेन देवकोटाविदेन समितेः प्रतिवेदनम् प्रस्तुवता इदानीमपि विशेष समित्या कार्यसम्पादनम् अवशिष्टमस्तीति हेतोः सप्ताहाय कार्यावधिः वदेः वर्धनेन सम्बद्ध प्रस्तावः प्रस्तुतः आसीत्। संयोजकस्य देवकोटाभिधस्य प्रस्तावम् उपवेशेन सर्वसम्मत्या स्वीकृत्य कार्यावधि सप्ताहाय वर्धितो वर्तते। तत्पूर्वं गतदिवसीयोपवेशे सांसदैः सामयिकतायाः जनसम्बद्धतायाश्च विषयेषु सर्वकारस्य ध्यानम् आकर्षितम् आसीत्। उपवेशस्य विशेष समये सांसदाः राष्ट्रे सुशासनस्य समृद्धेश्च विषयं सशक्ति अग्रे वर्धयितुं बलं प्रादुः। सांसदः वामदेव गौतमः नेपाली कांग्रेस दलेन प्रधानमन्त्रिणे पुष्पकमल दाहाल प्रचण्डाय मतप्रदानं स्वाभाविकमस्ति तर्कयन् अत्र बहु टीका टिप्पणीकरणम् आवश्यकम् नास्तीति अवोचत। सांसद भैरव सुन्दर श्रेष्ठ सर्वकारेण न्यूनतम संयुक्त कार्यक्रमाणाम् माध्यमेन राष्ट्रस्य समृद्धेर योजना अग्रेसारिता स्थिति प्रतिपादयन् अगदत् एतेषाम् कार्यक्रमाणाम् सफल क्रियान्वयनेन नागरिकाणाम् जीवनस्तरः उन्नेतुम् शक्यते। सांसद खिमलाल देवकोटा स्थानीय निकायानाम् सबलीकरणाय आवश्यकतानाम् स्रोत साधनानाम् जनशक्तेश्च व्यवस्थापनम् अभ्याचत। एवमेव सांसदाः उदयबहादुर बोहरा भगवती न्यौपाने विमला घिमिरे च विचारान् उदयरयन्। राष्ट्रियसभायाः अपरूपवेश आगामिनो माघमासस्य पञ्चमे दिवसे दिवा एकवादने वस्ता। गण्डकी प्रदेशस्य मुख्यमन्त्रिणा खगराज अधिकारिणा प्रदेशसभायां विश्वासस्य मतं प्राप्तमस्ति। षष्टि सदस्यायां प्रदेशसभायां विश्वासस्य मतस्य पक्षे एकत्रिंशत् विपक्षे च सप्तविंशतिः मतानि व्यक्तानि आसन्। एवमेव प्रथम प्रदेशस्य मुख्यमन्त्रिणा हिक्मत कुमार कार्किणा च विश्वासस्य मतं प्राप्तं वर्तते। त्रिनवति सदस्यायां प्रदेशसभायां ह्यबीते मतदाने विश्वासस्य मतस्य पक्षे एकोनषष्टिः विपक्षे च द्वात्रिंशद् मतानि व्यक्तानि आसन् चेत् एको जनः अनुपस्थितः आसीत्। मधेस प्रदेशस्य मुख्यमन्त्रिणा सरोज कुमार यादवेन पदगोपनीयतयो शपथ गृहीतो वर्तते। जनकपुर धामवर्तिनी प्रदेश प्रमुखस्य कार्यालये ह्य आयोजिते समारोहे प्रदेश प्रमुखस्य हरिशंकर मिश्रस्य समक्षम् असौ पदगोपनीयतयो शपथम् अगृह्णात्। एवमेव मुख्यमन्त्रिणः परामर्शेन नवनियुक्तः त्रयो विना विभागीय मन्त्रिणः सरोज कुमार यादव संजय यादव वसन्त प्रसाद कुशवाह च प्रदेश प्रमुखस्य समक्षम् पदगोपनीयतयो शपथम् गृहीतवन्तः। बागमती प्रदेशसभायाः नवनिर्वाचितः सभामुख भुवन पाठकः शपथेन प्रतिज्ञापितो वर्तते। प्रदेश प्रमुखेण यादवचन्द्र शर्मणा सभामुख पाठक पदगोपनीयतयो शपथेन ह्य प्रतिज्ञापितोऽस्ति। प्रदेशसभायां ह्य सम्पन्ने मतदाने राष्ट्रिय प्रजातन्त्र दलस्य पक्षतः प्रत्याशी पाठकः द्वाषष्टिं मतानि प्राप्य सभामुख पदे निर्वाचितः आसीत्। प्रथम प्रदेशस्य प्रदेश प्रमुखेण परशुराम खापुङ इत्यनेन त्रयो मन्त्रिण पदगोपनीयतयो शपथेन प्रतिज्ञापिता सन्ति। प्रदेश प्रमुखस्य कार्यालये ह्य आयोजिते समारोहे दुर्गा प्रसाद चापागाई जीवन आचार्य बुद्धिकुमार राज भण्डारी च कार्यविभाजनस्य पश्चात् निर्धारणत्वेन मन्त्रीपदे पदगोपनीयतयो शपथम् गृहीतवन्तः। मकवानपुर जनपद मनहरी स्थाने बृहस्पतिवासरस्य रात्रौ स्कूटरयानम दुर्घटितम सद त्रयोजना अम्रियन्त। मृतकेषु मनहरी ग्रामपालिकायाः अष्टमवडा क्षेत्रवर्तिनः सिम्पानी स्थानस्य द्वात्रिंशत् वर्षीयो धर्मराज मोक्तान, त्रिंशत् वर्षीयो मिलन मोक्तान च राक्षीराङ ग्रामपालिकायाः तृतीयवडा क्षेत्रवर्तिनो लावती स्थानस्य द्वात्रिंशत् वर्षीयो रूपेश तामाङ च सन्ति। पूर्व पश्चिम राजमार्गस्य अन्तर्गते मनहरी ग्रामपालिकायाः नववडा क्षेत्रवर्तिनी ज्यामिरे भलाद्मी चोक स्थाने स्कूटरयानम् दुर्घटितम् सद् जनत्रयमेव मृतमिति प्ररिनायव उपरीक्षक टेकबहादुर कार्की असूचयत। अधिकार दुरूपयोगानुसन्धान आयोगेन काष्ठमण्डपस्य सुकेधारावर्तिनो यातायात व्यवस्था कार्यालयस्य तात्कालिकस्य निमित्त कार्यालय प्रमुखस्य सम्प्रति राष्ट्रिय भूमि आयोगस्य अधिकृतस्य च गणेश प्रसाद पोखरेलस्य विरूद्धे कोट्याः षड्व्योलक्षेभ्यश्च रूप्यकेभ्योऽधिकायाः अवैधानिक सम्पत्तेः अर्जनस्य अभियोगे ह्यो काष्ठमण्डपस्थे विशेष न्यायालये आरोपपत्रम् पञ्जीकारितम् वर्तते। आयोगस्य प्रवक्त्रा श्यामप्रसाद भण्डारिणा ह्यः प्रकाशितायम् विज्ञप्तौ एवम् ज्ञापितमस्ति। प्रवक्तुः भण्डारिणः अनुसारेण अवैधानिक सम्पत्तेः अधिग्रहणस्य प्रयोजनाय पोखरेलस्य पत्नी विमला न्यौपाने पोखरेलः प्रतिवादिनी निर्धारिता वर्तते। राष्ट्रपतेः विद्यादेवी भण्डारिणः समक्षम् नेपालस्य कृते जनवादी गणतन्त्र चीनदेशस्य आवासीय राजदूतः चेन संग पूर्वेद्यो पदीय प्रमाणपत्रम् प्रास्तोत। शीतल निवासवर्तिनी राष्ट्रपति भवने आयोजिते समारोहे राष्ट्रपतेः भण्डारिणः समक्षम् राजदूतः चेन पदीय प्रमाणपत्रम् प्रास्तुतीति राष्ट्रपति कार्यालयस्य प्रवक्त्रा सागर आचार्येण प्रकाशितायम् विज्ञप्तौ ज्ञापितम् वर्तते। पूर्व प्रधानमन्त्री नेकपा एकीकृत समाजवादी दलस्य अध्यक्षश्च माधव कुमार नेपालः भासते राजनीतिज्ञाः इच्छाशक्तेः दुर्बलतायाः कारणेन नेपाले भ्रष्टाचार नियन्त्रणम् कठोरम् सम्भूतमस्ति। रामकुमार आचार्येण लिखितस्य नेपाले भ्रष्टाचारस्य कारणम् निवारणम् चेति नामकस्य पुस्तकस्य विमोचनस्य अवसरे ह्य आयोजिते कार्यक्रमे पूर्व प्रधानमन्त्री नेपालः राजनीतिके छाशक्तेः दुर्बलतायाः कारणेन भ्रष्टाचार नियन्त्रणाय संघटितैः निकायैः कार्यम् कर्तुम् सक्तम् नास्तीति विचारम् व्यक्तवान्। कार्यक्रमे नेकपा एमाले दलस्य नेता युवराज ग्यवाली भ्रष्टाचारस्य घटनासु राजनीतिक नेतृत्वस्य संरक्षणम् संलग्नता च जायमाने स्तः इत्यतः एतत् कार्यम् यथा समयम् अनियन्त्रितम् सद् वर्तमान राज्य प्रणालीम् प्रति जनतायाः विश्वासो न भवति, लोकतन्त्रम् संकटग्रस्तञ्च जायते इति विचारम् व्यक्तवान्। कार्यक्रमे नेपाली कांग्रेस दलस्य सांसदः प्रदीप पौडेलः, सांसदा रेखा शर्मा, मनिष झा, अर्थविद स्वर्णिम वाग्ले चेति वक्तारोपी भ्रष्टाचार नियन्त्रणम् अधिकृत्य विचारान् व्यक्तवन्तः आसन्। नेकपा एमाले दलस्य पूर्वोपमहासचिव वामपन्थी नेता च घनश्याम भूषाल ह्य नेकपा एकीकृत समाजवादी दलम् प्रविष्टो वर्तते। ह्यः काष्ठमण्डपे पत्रकार सम्मेलनम् आयोज्य भूषाला नेकपा एकीकृत समाजवादी दलम् प्रविष्टोऽस्ति। गत मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पन्ने निर्वाचने एमाले दलात् निर्वाचनानुमति पत्रस्य प्राप्तेऽनन्तरम् असौ एमाले दलम् परित्यज्य रूपन्देही जनपदा स्वतन्त्र रूपेण निर्वाचने प्रतिस्पर्धितः आसीत्। नारायणगढ़ मुगलिङ मार्गखण्डे अद्य स्वच्छ यातायात साधनानि न अवरोध्यन्ते। सेतोः निर्माणाय भित्तिकर्तनस्य कृते दिवा घण्टाचतुष्टयम् पिधाप्यमाने अस्मिन् मार्गखण्डे मकर संक्रान्त्याः उपलक्ष्ये यातायात साधनानि न अवरुध्यन्ते इति ज्ञापितमस्ति। मकर संक्रान्त्याः मेलायाः कृते देवघाट धाम्नि भक्तजनाः सुदूर स्थानेभ्यः अपि आगच्छन्ति इत्यतः मार्गः पूर्णरूपेण सञ्चाल्यमानोऽस्तीति चितवन जनपद प्रशासन कार्यालयेन ज्ञापितम् वर्तते। पञ्चविंश राष्ट्रिय भूकम्प सुरक्षा दिवसस्य अवसरे प्रचार प्रसार उपसमित्या राष्ट्रिय कार्यक्रमस्य कार्यतालिका सार्वजनिकृता वर्तते। काष्ठमण्डपवर्तिनी नगरीय विकास भवन निर्माण विभागस्य कार्यालय यहाँ आयोजिते पत्रकार सम्मेलने आगामिनो मार्गस्य द्वितीय दिवसे परस्वायोक्षमाणस्य पञ्चविंश भूकम्प सुरक्षा दिवसस्य राष्ट्रिय कार्यक्रमस्य कार्यतालिका सार्वजनिकृता अस्ति।